अञ्जन् दिक्त्वा मध्वरे देवे भयन्तो वनस्पते मधुना दैव्येन यदूर्ध्वस्तिष्ठाद्रविनेहधत्ताद्यद्वाक्षयो मातुरस्याुपस्थे समिद्धस्य श्रयमानः पुरस्ताद्ब्रह्ममन्वानो अजरम् सुवीरम् हारे अस्मदमतिम् बाधमानगुच्छ्राय स्वमहते सौभागाय उच्छ्राय स्ववनस्पते वष्मन् पृथिव्या अधि सुमेति मीयमानो वच्चोधायज्ञमाहसे युवा सुवासाः परिवीता गात्समुश्रेयान् भवति जायमानः तम् धीरासः कवचमुन्नयन्ति स्वाध्यो ओ मनसा देवयन्ताः जातो जायते सुधिनत्वे अह्नान् सवर्या वितथे वर्धमानः पुनन्ति धीरा अपसो मनीषा देवया विप्रभुदीयर्ति वाचम् यान्मो नरो देवयन्तो निमिन्युर्वनस्पते स्वधीतिर्वा ददक्ष ते देवा सस्वरमस्तस्तिमांसः प्रजावदस्मे दीदिषन्तु रत्नम् ये ऋग्नासो अधिक्ष विनिमीतासो यतश्रूचः हेनो व्यन्तु वार्यम् देवत्राक्षेत्रसाधसः आदित्या रुद्रावसवस्सु नीचाद्या वाक्षामा पृथिवी अन्तरिक्षम् स चोडासो यज्ञमवन्तु देवा भूध्वम् कृण्वन्त्वध्वरस्य केतुम् हंसायैवस्रणिशो यथा नाः शुक्रावसा नाः स्वरवो नागुः उन्नीयमानाः कविभिर्परस्ताद्देवा देवानामपि यन्ति पाथाः शृङ्गाराणि वेच्छृङ्गिनाम् सन्ददृश्रे जालवन्तस्वरवपृथिव्याम् वाहद्भिर्वाविहवे श्रोषमाणा अस्मान्तु प्रथनाद्येषु वनस्पते सतवल्सो विरोहजगस्रवल्सा विभयम् रूहेम यम् त्वामयम् स्वधीतिस्तेजमानः प्रणिनाय महते सौभागाय